ॐ श्री परमात्मने नमः। अथ षोडशोऽध्यायः। श्री भगवानुवाच। अभयं सत्त्वसंशुद्धि ज्ञानयोग व्यवस्थितिः दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम् अहिंसा दयाभूतेष्वलोलुपं मार्दवं हेरचापलम् तेजः क्षमा धृति शौच मद्रोः नातिमानिता संपदं दैवी मभिजातस्य भारत दाम्भो दर्पोऽभिमानश्च क्रोधः पारोष्यमेव च अज्ञानं चाभिजातस्य पदमासुरिम् दैवी सम्पद्विमोक्षाय निबन्धायासुरे मता मा शुचः सम्पदं दैवी मभिजातोऽसि पाण्डव द्वौ भूतसर्गौ लोकेऽस्मिन् दैव आसुर एव च दैवो विस्तर्षः प्रोक्त आसुरं पार्थमेष्णु प्रवृत्तिं च जनान् विदुरासुराः न शौचं नापि चाचारो न सत्यं तेषु विद्यते असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम् अपरस्परसम्भूतम् इमान्यत् कामहैतुकम् एतां दृष्टिमवष्टभ्य नष्टात्मानोऽल्पबुद्धयः प्रभवान्त्युग्रकर्माणः क्षयाय जगतो हिताः काममाश्रित्य दोष्पूरं दम्भमानमदान्विताः मोहाद्गृहीत्वा सद्ग्राहान् प्रवर्तन्ते शुचिव्रताः चिन्तामपरिमेयां च कलयान्तामुपाश्रिताः पुनर्धनम् असो मया हतः शत्रु अनिशे चापरानपि ईश्वरो हमहं भोगी सिद्धोहं बलवान् सुखी जनवानस्मि कोऽन्योऽस्ति सदृशो मया यक्षे दास्यामि मोदिश्य इत्यज्ञानविमोहिता अनेकचित्तविभ्रान्ता जाल समावृताः प्रसक्ताः कामभोगेषु पतन्ति नरकेषु च आत्मसंभाविताः स्तब्धा यज्ञैस्ते दम्भेनाविधिपूर्वकम् अहङ्कारं बलं दर्पं कामं क्रोधं च संश्रिताः मामात्मपरदेहेषु प्रद्विषन्तो सूयकाः तानहं द्विषतः क्रूरान् संसारेषु नराधमान् क्षिपाम्यजश्रमशुभा नासुरेष्वेव योनिषु सुरीं योनिमापन्ना मूढा जन्मनि जन्मनि माम प्राप्यैव कौन्तेय ततो यान्त्यधमाङ्गतिम् त्रिविधं नरकस्येदम् द्वारं नाशनमात्मनः कामः क्रोधस्तथा लोभस्तस्मादेतत्त्रयं त्यजेत् एतैर्विमुक्तः कौन्तेय तमोद्वारैस्त्रिभिर्नरः चरत्यात्मनः श्रेयस्ततो याति पराङ्गतिम् यः शास्त्रविधिमुत्सृज्य वर्तते ते काम कारत न स सिद्धिम वाप्नोति न सुखं न परांगतिं तस्माच्छास्त्रं प्रमाणं ते कार्याकार्य व्यवस्थितौ ज्ञात्वा शास्त्रविधानोक्तं कर्म कर्तुमिहार्हसि
गीता सूपनिषत्सु ब्रह्म विद्यायां योगशास्त्रे श्रीकृष्णार्जुन संवादे दैवासुर संपद विभाग योगो नाम षोडशः।